संस्कृत भाषा ब्राह्मण नृपति मंत्रिभिः प्रयोक्तव्या, सा भाषा ही देव असुर गंधर्व सिद्धैः अवगम्यते, तस्मात् सा देव वाक् इति विद्वद्भिः उच्यते। पूर्व ऋषयः अपि दित इन्द्रियाः महाआत्मानः च बहुस्तोत्राणि बहुसूत्राणि च तद् भाषा विरचितानि ऊचुः। अस्मत्काले तु कलियुगे अत्र सा सुअल्पमतिभिः पुरुषैः विस्मृता, यदि अपि तत् सत्यम् एव सुबुद्धयः तथा अपि ताम् जानन्ति। वरविद्यालयेषु हि शिष्याः केचित् विद्यन्ते ये महाविज्ञानेभ्यः आचार्येभ्यः अधीयन्ति।